एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलस्य द्वितीयं विधान महाधिवेशनं सम्पन्नमस्ति। ललितपुरस्य गोदावरी स्थाने दिनत्रयं यावत् संचालिते महाधिवेशने दलस्य राजनीतिकं प्रतिवेदनं, विधान संशोधन सम्बद्ध प्रस्तावः, सांगठनिक प्रतिवेदनं, केन्द्रीय निकायानां चत्वारि प्रतिवेदनानि च सर्वसम्मत्या पारितीकृतानि वर्तन्ते। महाधिवेशने दलाध्यक्षेण केपी शर्मा ओलिना प्रस्तुतः राजनीतिक प्रस्तावः, उपाध्यक्षेण विष्णुप्रसाद पौडेलेन प्रस्तुतः विधान संशोधन प्रस्तावः, महासचिवेन शंकर पोखरेलेन प्रस्तुतः सांगठनिक प्रस्तावश्च सर्वसम्मत्या पारितीकृताः वर्तन्ते इति एमाले दलीय प्रचार प्रकाशन विभागेन ज्ञापितं वर्तते। एवमेव केन्द्रीय परामर्श परिषदः अध्यक्षेण अमृत कुमार बोहरा इत्यनेन, केन्द्रीयानुशासन आयोगस्य अध्यक्षेण केशव बडालेन, केन्द्रीय लेखा आयोगस्य अध्यक्षेण डाक्टर पुष्प कणेल इत्यनेन, केन्द्रीय निर्वाचन आयोगस्य अध्यक्षेण डाक्टर विजय सुब्बा विधेयेन च स्व स्व निकायस्य पक्षतः प्रतिवेदनं प्रस्तुतमासीत्। अस्यैव भाद्रमासस्य विंशात् दिवसात् ह्यस्तनं यावत् संचालिते विधान महाधिवेशने आराष्ट्रं समग्रता सहस्रद्वयं एकचत्वारिंशच्च जनाः सहभागिनः आसन्। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली सर्वकारेण यूट्यूब फेसबुक प्रभृतीनां सामाजिक सञ्जालानां नियमनं कर्तुम् इप्सितमस्तीति स्पष्टीकृतवान् वर्तते। सम्प्रत्येव संचालितस्य दलस्य द्वितीय विधान महाधिवेशनस्य आन्तरसत्रीय अध्यक्षः ओली सर्वकारेण सर्वोच्च न्यायालयेन सामाजिक सञ्जालानां नियमनं कर्तुं प्रदत्तस्य आदेशस्य पालनं विहितमस्तीति समस्पष्टयत्। तदवसरे प्रधानमन्त्री ओली सर्वकारः राष्ट्रस्य हितस्य पक्षे सबलोपस्थित्या स्थितोऽस्ति, राष्ट्रियतायाः दुर्बलीकरणस्य कार्यं सह्यं न भविष्यतीति च समस्पष्टयत्। नेपाली कांग्रेस दलेन सामाजिक सञ्जालानां सूचीकरणाभावे पिधानस्य विषये सर्वकारेण सह विमर्शनं विधास्यते। बुढानीलकण्ठवर्तिने सभापतेः शेरबहादुर देवबाभिदस्य निवासे ह्य उपविष्टेन कांग्रेस केन्द्रीय कार्यसम्पादन समितेः उपवेशेन सर्वकारेण सह विमृश्य दलस्य धारणा सार्वजनिकी करिष्यते इति सः महामन्त्री जीवन परियारः असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सीमा प्रवेश बिन्दु सम्बद्धं विधिं संशोधयितुम् एकीकर्तुं च निर्मितं विधेयकं प्रमाणीकृतमस्ति। संघीय संसदः द्वाभ्यामेव सदनाभ्यां पारितीकृतं विधेयकमिदं नेपालस्य संविधानस्य अनुसारेण राष्ट्रपतिना पौडेलेन प्रमाणीकृतमस्तीति राष्ट्रपति कार्यालयस्य प्रवक्त्रा प्रदीप कुमार कोइराला इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह निगदति सर्वकारीय कर्मचारिभि सेवाग्राहिण केन्द्रे संस्थाप्य सरलां द्रुतां परिणाममुखिनीं च सेवां प्रदातुं प्रतिबद्धैर्भाव्यम्। सर्वकारीय सेवा दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे उपप्रधान नगरीय विकास मन्त्री सिंह एवं उक्तवान्। कार्यक्रमे संघीय विषय सामान्य प्रशासन मन्त्री भगवती नेउपाने संघीय सर्वकारीय सेवा विधेयकं कतिचिद्भि दिवसै संसदि पारयिष्यते, प्रशासनिकीं संघीयतांश्च क्रियान्वेतुं सारल्यं भविष्यतीति उक्तवती। तदवसरे मुख्य सचिवः एकनारायण अर्यालः सेवाग्राहिभ्यः सरलतया सेवां प्रदातुं कर्मचारिभ्यः अनुरुणत्। सनातन हिन्दु परम्परानुसारेण अद्य प्रभृति पितृपक्षः प्रारब्धोऽस्ति। आश्विन कृष्णपक्षः पितॄणां कृते पर्वसमानः कालो भवतीति धार्मिकग्रन्थेषु वर्णितमस्ति। षोडशाध इति नाम्ना प्रथितासु पितृपक्षस्य षोडशतिथिषु दिवंगत पितृभ्यः सश्रद्धम् अन्नजले समर्प्यते। यज्ञपूजादि विशिष्ट पर्वणाम् अनुष्ठानात् प्राक् अभ्युदयिक श्राद्धरूपेण पितरः पूज्यन्ते इत्यतः दुर्गापूजा एम पञ्चकयोः विशिष्ट पर्वणः पूर्वं षोडशतिथिषु विधीयमानैः श्राद्धै पितृऋणात् मुक्तिर्मिलिष्यति, चित्तशुद्धिश्च सञ्जायते इति शास्त्रीयमान्यता वर्तते। अस्मिन् पक्षे श्राद्धे न विहिते सति अक्षम्य दोषो भवतीति शास्त्रीय वचनस्यानुसारेण षोडश श्राद्धं विधीयमानमस्तीति धर्मशास्त्रविद् प्राध्यापक डॉ रामचन्द्र गौतम अज्ञापयत्। पितृपक्षोऽयम् अश्विन कृष्ण प्रतिपद आरभ्य आगामिनीम् अमावस्याम् अर्थात् अश्विन मासस्य आगामिनं पञ्चमं दिवसं यावत् चलिष्यति। तदनु नवरात्रि पर्व विजयादशमी पर्व वा प्रारप्स्यते। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते स्वकीय दले सम्प्रति विपक्षित्वेन प्रतिनिधिसभायां विद्यमानेऽपि जनतां प्रति केन्द्रीभूय कार्यं विधीयमानमस्ति। ह्य लमजुङ जनपदस्य सुन्दर बजार नगरपालिकायाः नवमौडा क्षेत्रस्य भेडे उडार स्थाने आयोजिताम् मध्यपर्वतीय लोकमार्गाभियानान्तर्गताम् सभाम् सम्बोधयन् अध्यक्षः प्रचण्डः माओवादी केन्द्रम् अल्पमते विद्यते इति कथनम् यथार्थम् नास्ति इति न्यस्यनोत्। नेपालस्य महिला सर्वकारीयाधिवक्तृणां प्रथमं राष्ट्रिय सम्मेलनम् अद्यतः प्रारभते। द्वि दिवसात्मके सम्मेलने महिला सर्वकारीयाधिवक्तृणाम् अनुभवानां विनिमयेन व्यवसायगतानाम् अवसराणां समाहोयानां विषये च विमृक्ष्यते इति सह न्यायाधिवक्त्री मीना गुरूङ असूचयत्। सम्मेलनेन काष्ठमण्डप घोषणापत्रं प्रकाशयिष्यते इति ज्ञापितं वर्तते। बारा जनपदे ह्य पुनः व्याघ्रस्य आक्रमणेन एको जन मृतोऽस्ति। अनया घटनया सहैव पश्चात्तन मासद्वये बारा जनपदे व्याघ्राणाम् आक्रमणेन मृतानां जनानां संख्या चत्वारि प्राप्तानि सन्ति। ह्य छत्रार्कस्य आनयनाय प्रगतिशील सामुदायिक वने गत जितपुरसिमरा उपमहानगरपालिकायाः प्रथम ओडा क्षेत्र निवासी 60 वर्षीय छेवाङ लामा व्याघ्रस्य आक्रमणेन मृत इति सिमरा प्रहरी कार्यालयस्य प्रमुख असूचयत्। जापान देशस्य प्रधानमन्त्रिणा शिगेरू इशिवा इत्यनेन सत्तायाम् आरोहणस्य एकवर्ष प्राप्तेः पूर्वमेव पदात्यागपत्रं प्रदातुम् उद्घुष्टमस्ति। समयेऽस्मिन् जापान देशः वर्धमान खाद्य मूल्यस्य नियमनं कर्तुं प्रयासरतो वर्तते इति समाचारः।